प्रतिष्ठदिदेऽङ्गणे रत्नभूतमिहानीतैयदासीद्वेधसोऽद्भुतम् निधिरेष महापद्मः समानीतो धनेश्वरात् किञ्जल्किनीम् ददौ चाब्धिर्मालामम्लानपङ्कजाम् क्षत्रम् देवारुणङ्गेः काञ्चनस्राभितिष्ठति तथा यम् स्यन्दनपरो यः पुरासीत् प्रजापतेः मृत्योरुक्रान्तिदा नामा शक्तिरीशद्वया हृदा पाशासलिलराजस्य भ्रातुस्तव परिग्रहे निशुम्भस्याब्धिजाताश्च समस्ता रत्नजातयः वह्निरपि ददो तुभ्यामग्निशौचे च वाससि एवम् दैत्येन्द्ररत्नानि समस्तान्याहृतानि ते स्त्रीरत्नमेषा कल्याणी त्वया कस्मान्न गृह्यते ऋषिरुवाच निशम्येति वचः शुम्भः सतराचण्डमुण्डयोः प्रेषयामास सुग्रीवम् दूतम् देव्या महासुरम् इति चेति च वक्तव्या सा गत्वा वचनान्महा यथा चाभ्येति सम्प्रीत्या तथा कार्यम् त्वया लघो सरत्र गत्वा यत्रास्ते शैलोद्देशे दिशोभने ताम् च देवीम् ततः प्राह श्लक्ष्णम् मधुरया गिरा दूत उवाच देवि दैत्येश्वरः शुम्भस्त्रैलोक्ये परमेश्वरः दूतोऽहम् प्रेषितस्तेन त्वत्सकाशमिहागतः अव्याहताज्ञः सर्वासु यः सदा देवयोनिशो निर्जिताखिल दैत्यारिः स यदाः शृणुष्व तत् मम त्रैलोक्यमखिलम् मम देवावशानुगाः यज्ञभागानहम् सर्वानुपाश्नामि पृथक् पृथक् त्रैलोक्ये वररत्नानि मम पश्यान्यशेषतः तथैव गजरत्नम् चाहृतम् देवेन्द्रवाहनम् क्षीरोदमथनोद्भूतमश्वरत्नम् ममामरैः उच्चैश्रवसञ्ज्ञम् तत्प्रणिपत्य समर्पितम् यानि धान्यानि देवेषु गन्धर्वेषु रगेषु च रत्नभूतानि भूतानि तानि मय्येव शोभने स्त्रीरत्नभूताम् त्वाम् देवि लोके मन्यामहे वयम् सा त्वमस्मानुपागच्छा यतो रत्नभुजो वयम् माम् वा ममानुजम् वापि निशुम्भमुरुविक्रमम् भज त्वम् चञ्चलापाङ्गे रत्नभूतासि वय्यतः परमैश्वर्यमतुलम् प्राप्स्यसे मत्परिग्रहात् एतद्बुद्ध्या समालोच्य मत्परिग्रहताम् व्रज ऋषिरुवाच इत्युक्ता सा तदा देवी गम्भीरान्तस्मिता जगो दुर्गा भगवती भद्राय येदम् धार्यते जगत् देव्युवाच सत्यमुक्तम् त्वया नात्रा मिथ्या किञ्चित् त्वयोदितम् त्रैलोक्याधिपतिः शुम्भो निशुम्भश्चापितादृशः किम् त्वत्र यत्प्रतिज्ञातम् मिथ्या तत्क्रियते कथम् श्रूयतामल्पबुद्धित्वात् प्रतिज्ञाया कृता पुरा यो वाञ्जयति सङ्ग्रामे यो मे दर्पम् व्यपोहति यो मे प्रतिबलो लोके स मे भर्ता भविष्यति तदा गच्छतु शुम्भोऽत्र निशुम्भो वा महाबलः माञ्जित्वा किम् चिरेणात्र पाणिम् गृह्णातु मे लघो दूत उवाच अवलिप्तासि मैवम् त्वम् देवि प्रोहि ममाग्रदः त्रैलोक्येक पुमां तिष्ठेदग्रे शुम्भदिशुम्भयोः अन्येषामपि दैत्यानाम् सर्वे देवा न वैयुधि तिष्ठन्ति सम्मुखे देवि किम् पुनस्त्री त्वमेकिका इन्द्राद्याः सकला देवास्तस्थुर्येषा न संयुगे शुम्भादीनाम् कथम् तेषाम् स्त्री प्रयास्यसि सम्मुखम् सा त्वम् गच्छ मयि भोक्ता पार्श्वम् शुम्भदिशुम्भयोः एषा कर्षणनिर्धोता गुरवामागमिष्यसि देव्युवाच एवमेतद्बली शुम्भो निशुम्भश्च पितादृशः किम् करोमि प्रतिज्ञामे यदनालोचिता पुरा सत्त्वम् गच्छ मयोक्तम् ते यदेतत्सर्वमादृतः तदा चक्ष्वासुरेन्द्राय सदयुक्तम् करोतु तत् श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवी माहात्म्ये देव्यादूतसंवादो नाम पञ्चमोऽध्यायः ऋषिरुवाच यदित्याकर्ण्यवचो देव्याः सदोतोमर्षपोरितः समाचष्ट समागम्या दैत्यराजाय विस्तरात् तस्य दूतस्य तद्वाक्यमाकर्ण्यासुरराट्टतः सक्रोधप्राह दैत्यानामधिपन्थो प्रलोचनम् हेधूम्रलोचनाशुत्वम् स्वसैन्यपरिवारितः तामानयबलाद्दुष्टाम् केशाकर्षणविक्बलाम् तत्परित्राणदः कश्चिद्यदिवोत्तिष्ठते परः सहन्तव्यो मरो वापी यक्षो गन्धर्व एव वा ऋषिरुवाच तेनाज्ञप्तस्ततः शीघ्रम् स दैत्यो धूम्रलोचनः व्रतषष्ट्या सहस्राणामसुराणाम् मृदुनय्ययौ स दृष्ट्वा ताम् ततो देवीम् दुहिनाचलसंस्थिताम् जगादोच्चैः प्रयाहीति मोदम् शुम्भनिशुम्भयोः न चेत् प्रीत्याद्य भवति मद्भर्तारमुपैष्यति ततो बलान्नयाम्येषा केशाकर्षणविक्वलाम् देव्युवाच दैत्येश्वरेण प्रहितो बलवान् बलसंव्रतः बलान्नयसि मामेवम् ततः किम् ते करोम्यहम् ऋषिरुवाच इत्युक्तसोऽभ्यदावत्तामसुरोधूम्रलोचनः हुङ्कारेणैव तम् भस्मा सा चकाराम्बिका तदा अथ क्रुद्धम् महासैन्यासुराणाम् तथापिका ववर्षसायकैस्तीक्ष्णैस्तथा शक्तिपरश्वथैः ततो धुतसठः कोपात् कृत्वा नादम् सुभैरवम् पपातासुरसेनायाम् सिंहो देव्या स्ववाहनः कांश्चित्करप्रहारेण दैत्यानास्येन चापरान् आक्रान्त्या चाधरेणान्याञ्जघानसमहासुरान् केषाञ्चित्पाटयामासानखैः कोष्ठानि केसरी तथा दलप्रहारेणाशिरांसि कृतवान् पृथक् विच्छिन्नबाहुशिरसः कृतास्तेन तथा परे पवोजरुधिरम् कोष्ठादन्येषाम् धुतकेसरः क्षणेन तत्पलम् सर्वम् शयन्नीतम् महात्मना तेन केसरिणा देव्या वाहनेनातिकोपिना श्रुत्वा तमसुरम् देव्या निहतम् धूम्रलोचनम् बलम् चक्षयितम् कृत्स्नम् देवी केसरिणा ततः च ಶುಕೋಪದೈತ್ಯಾಧಿಪತಿಶುಂಭ ಪ್ರಸ್ಫುರಿತಾಧರ ಆಜ್ಞಾಪಯಾಮಾಸ ಚತೌ ಚಂಡಮುಂಡೋ ಮಹಾಸುರೌ ಹೇ ಚಂಡ ಹೇ ಮುಂಡ ಬಲೈರ್ಬಹುಭಿಃ ಪರಿವಾರಿತೋ ತತ್ರ ಗಚ್ಚತ ಗತ್ವಾ ಚಾಸಾ ಸಮಾನೀಯತಾನ್ ಲಘೋ ಕೇಶೇಷ್ವಾಕೃಶ್ಯ ಮಧ್ವಾ ವಾ ಯದಿ ವತ್ ಸಂಶಯೋ ಯುಧಿ ತದಾ ಶೇಷಾಯುಧೈ ಸರ್ವೈರಸುರೈರ್ವಿನಿಹನ್ಯತಾಂ ತಸ್ಯಾಂ ಮದಾಯಾಂ ದುಷ್ಟಾಯಾಂ ಸಿಂಹೇ ಚ ವಿನಿಪಾತಿತೇ ಶೀಘ್ರಮಾಗಮ್ಯತಾಂ ಬದ್ಧ್ವಾ ಗೃಹೀತ್ವಾ ತಾಮಥಾಂಬಿಕಾಂ ಶ್ರೀಮಾರ್ಕಂಡೇಯ ಪುರಾಣೇ ಸಾವರ್ಣಿಕೆ ಮನ್ವಂತರೇ ದೇವೀ ಮಾಹಾತ್ಮ್ಯೇ ಧೂಮ್ರಲೋಚನ ಮಥೋ ನಾಮ ಷಷ್ಠೋಧ್ಯಾಯಃ ಋಷಿರುವಾಚ ಆಜ್ಞಪ್ತಾಸ್ತೆ ತತೋ ದೈತ್ಯಾಶ್ಚಂಡಮುಂಡ ಪುರೋರಮಾಃ ಚತುರಂಗ ಬಲೋ ವೇದಾಯುರಭ್ಯುತ್ಯತಾಯುಧಾಃ ದದೃಶುಸ್ತೆ ತತೋ ದೇವೀಮೀಷದ್ಧಾಸಾಂ ವ್ಯವಸ್ಥಿತಾಃ ಸಿಂಹಸ್ಯೋಪರಿ ಶೈಲೇಂದ್ರ ಶೃಂಗೇ ಮಹತಿ ಕಾಂಚನೇ ತೇ ದೃಷ್ಟ್ವಾ ತಾಂ ಸಮಾದಾತುಮುದ್ಯಮಂ ಚಕ್ರುರುದ್ಯತಾಃ ಆಕೃಷ್ಟ ಚಾಪಾಸಿ ಧರಾಸ್ತಥಾನ್ಯೇತತ್ ಸಮೀಪಗಾಃ ತದಃ ಕೋಪಂಚಕಾರೋಚ್ಚೈರಂಬಿಕಾ ತಾನರೇನ್ ಪ್ರತಿ ಕೋಪೇನ ದಾಸ್ಯಾವದನಂ ಮಶೀವರ್ಣಮಭೋತ್ತದಾ ಭೃಗುಣೇ ಕುಟಿಲಾತ್ತಸ್ಯಾಲಲಾಟಫಲಕಾದೃತಂ ಕಾಲೇ ಕರಾಲಮದನಾ ವಿನಿಷ್ಕ್ರಾಂತಾಸಿ ಪಾಶಿನೀ ವಿಚಿತ್ರ ಖಡ್ವಾಂಗಧರಾ ನರಮಾಲಾ ವಿಭೂಷಣ ದ್ವೀಪಿ ಚರ್ಮ ಪರಿಧಾನಾ ಶುಷ್ಕ ಮಾಂಸಾದಿ ಭೈರವ ಅತಿ ವಿಸ್ತಾರ ವದನಾ ಜಿಹ್ವಾಲಲನ ಭೀಷಣ ನಿಮಗ್ರಾರಕ್ತನಯನಾ ನಾದಾಪೂರಿತ ದಿಮ್ಮುಖ ಸಾ ವೇಗೇನಾಭಿಪತಿತಾ ಘಾತಯಂತೇ ಮಹಾಸುರಾನ್ ಸೈನ್ಯೇ ತತ್ರ ಸುರಾರೇಣಾಮಭಕ್ಷಯತ ತತ್ಬಲಂ ಪಾರ್ಷ್ಟಿಗ್ರಾಹಾಂಕುಶಗ್ರಾಹಾ ಯೋಧಕಂಠಾ ಸಮನ್ವಿತಾನ್ ಸಮಾದಾಯೈಕಹಸ್ತೇನಾ ಮುಖೇ ನಿಕ್ಷೇಪವಾರಣಾನ್ ತಥೈವ ಯೋಧಂ ತುರಗೈರಥಂ ಸಾರಥಿನಾ ಸಹ ನಿಕ್ಷಿಪ್ಯ ವಕ್ತ್ರೇ ದಶನೈಶ್ಚರ್ವಯಂ ಚ ದಿಭೈರವಂ ಏಕಂ ಜಗ್ರಾಹ ಕೇಶೇಷು ಗ್ರೀವಾಯಾಮಥ ಚಾಪರಂ ಪಾದೇನಾಕ್ರಮ್ಯ ದೇವಾನ್ಯಮುರಸಾನ್ಯಮಪೋಥಯತ್ ತೇ ಮುಕ್ತಾನಿ ಚ ಶಸ್ತ್ರಾಣಿ ಮಹಾಸ್ತ್ರಾಣಿ ತಥಾ ಸುರೈಃ ಮುಖೇನ ಜಗ್ರಾಹರುಷಾ ದಶನೈರ್ಮಥಿತಾನ್ಯಪಿ ಬಲಿನಾಂ ತದ್ಬಲಂ ಸರ್ವಾಸುರಾಣಾಂ ದುರಾತ್ಮನಾಂ ಮಮರ್ಥಾ ಭಕ್ಷಯಜ್ಞಾನ್ಯಾನನ್ಯಾಶ್ಚಾತಾಡಯತ್ತರಾ ಅಸಿ ನಾನಿಹತಾ ಕೇಚಿತ್ ಕೇಚಿತ್ ಖಡ್ವಾಂಗತಾಡಿತಾಃ ಜಗ್ಮುರ್ವಿನಾಶಮಸುರಾದಂತಾಗ್ರಾಭಿಹತಾಸ್ತಥಾ ಕ್ಷಣೇನ ತದ್ಬಲಂ ಸರ್ವಮಸುರಾಣಾಂ ನಿಪಾತಿತಂ ದೃಷ್ಟ್ವಾ ಚಂಡೋಭಿರುದ್ರಾವಾತಾಂ ಕಾಲೀಮತಿ ಭೀಷಣಾಂ ಶರವರ್ಷೇರ್ಮಹಾಭೀಮೈರ್ಭೀಮಾಕ್ಷೀಂತಾಂ ಮಹಾಸುರಃ ಛಾದಯಾಮಾಸ ಚಕ್ರೈಶ್ಚ ಮುಂಡಃ ಕ್ಷಿಪ್ತೈಃ ಸಹಸ್ರಶಃ ತಾನಿ ಚಕ್ರಾಣ್ಯನೇಕಾನಿ ವಿಷಮಾನಾನಿ ತನ್ಮುಖಂ ಬಹುರ್ಯಸಾರ್ಗಬಿಂಬಾನಿ ಸುಬಹೋನಿ ಘನೋದರಂ ತತೋ ಜಹಾಸಾತಿ ರುಷಾ ಭೀಮಂ ಭೈರವನಾದಿನೀ ಕಾಲೇ ಕರಾಲವದನಾ ದುರ್ದರ್ಶದಶನೋಜ್ವಲಾ उत्थाय च महासिंहम् देवी चण्डमथावता गृहे त्वा चास्य केशेषु शिरस्तेनासिनाक्षिणत् अथ मुण्डोऽभ्यधावत्ताम् दृष्ट्वा चण्डम् निपातितम् समप्यपातयद्भूमौ सा खड्गाभिहतम् मृषा हतशेषम् ततः सैन्यम् दृष्ट्वा चण्डम् निपातितम् मुण्डम् च सुमहावीर्यम् दिशो भेदे भयातुरम् शिरश्चण्डस्य काली च गृहे त्वा मुण्डमेव च प्राह प्रचण्डाट्टहासमिश्रमभ्येत्य चण्डिकाम् मया तवात्रोपहृतौ चण्डमुण्डौ महापशो युद्धयज्ञे स्वयम् शुम्भम् निशुम्भम् च हरिष्यसि ऋषिरुवाच तावानीतौ ततो दृष्ट्वा चण्डमुण्डौ महा
ऋषिरुवाच चण्डे च निहते दैत्ये मुण्डे च विनिपातिते बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वरः तदक्षोपमराधीनेता शुम्भप्रभामवान् उद्योगम् सर्वसैन्यानाम् दैत्यानामादिदेशः अद्य सर्ववलैर्दैत्या षडशीतिरुदायुधा कम्बूनाम् चतुरशीतिर्निर्यान्मुस्वबलैर्वृताः कोटिवीर्याणि पञ्चाशतसुराणाम् कुलानि वै शतम् कुलानि धूम्राणाम् निर्गच्छन्तु ममाज्ञया कालकालोर्हृदा मौर्याः कालिकेयास्तथा सुराः युद्धाय सज्जा निर्यान्तु आज्ञया त्वरिता मम इत्याज्ञाप्यासुरपदिः शुम्भो भैरवशासनः निर्जगाममहासैन्यसहस्रैर्बहुभिर्वृतः आयान्तम् चण्डिका दृष्ट्वा तत्सैन्यमतिभीषणम् ज्यास्वनैः पूरयामासा धरणी गगनान्तरम् तत सिंहो महानादमतीव कृतवान्द्रव घण्टास्वनेन दान्नादानम् विकाकोपबृंहयत् धनुर्जा सिंहघण्टानाम् नादापूरितसिंमुखा निनादैर्भीषणे काले जिज्ञे विस्तारिदानना संनिनादमुपश्रुत्या दैत्यसैन्येश्चतुर्दिशम् देवी सिंहस्तथा काले सरोषैः परिवारिताः एतस्मिन्नन्तरे भूपा विनाशाय पुरद्विषाम् बलान्विताः ब्रह्मेश गुहविष्णूनाम् रथेन्द्रस्य च शक्तयः शरीरेभ्यो विनिष्क्रम्य तद्रूपैश्चण्डिकायययोः यस्य देवस्य यद्रूपै यथा भूषणवाहनम् तद्वदेव हि तच्छक्तिरसुरान्योद्धुवाययौ हंसयुक्तविमानाग्रे साक्षतोद्रकमण्डलुः आयाता ब्रह्मणः शक्तिर्ब्रह्माणि च विधीयते माहेश्वरी वृषारूढा त्रिशूलवरधारिणी महाहिमलया प्राप्ता चन्द्ररेखा विभूषणा कौमारी शक्तिहस्ता च भयोरवर योद्धुमभ्याययो दैत्यानम्बिका गुहरोपिणी तथैव वैष्णवी शक्तिर्गरुडो परिसंस्थिता शङ्खचक्रगदा शार्ङ्गखड्गहस्ताभ्युमाययो यज्ञमारामतुलम् रूपैया बिभ्रतो हरेः శక్తి సాప్యాయ తారాహీ నారసింహేంద్రసింహస్య బిభ్రదే సదృశం వపు.